व्रजे प्रसेदं नवनीताचारं गोपांगनानां च दुकुलचोरं अनेक जन्मार्जित पापचारं चौराग्रगण्यं पुरुषं नमामि श्रीराधिकाया हृदयस्य चौरं नवाम्बुदश्यमाला कान्ति चौरा पादाश्रितानां च समस्तचौरं चौराग्रगण्यं पुरुषं नमामि अकिञ्चनीकृत्य पादाश्रितं व्यं करोति भिक्षुं पतिगेहहीनम् केनाप्यहो भीषण चौराये दृक् दृष्टा श्रुतो वा न जगत्त्रयेऽपि यद्यन् अपि हरति अशेषं गिरिप्रसारन्नपि पापराशि आश्चर्यरूपो ननु चौर एद्रे दृष्टा श्रुतो वा न माया कदापि धनं च मानं च तत्तेन्द्रियाणि प्राणंश्च विद्वा मम सर्व एव कालायसे कुत्र धृतोद्यचौरा त्वं भक्तिधाम्नासि मया निरोद छिनत्सि गौरं यमपाशबन्धं भिनत्सि भीमं भव पाशबन्धम् छिनत्सि सर्वस्य समस्तबन्धं नैवात्मनो भक्त कृतं तु बन्धम् मन्मानसे तामसराशि गौरे कारागृहे दुःखमये निबद्धः लाभस्वहेच्छौरा हरे चिराय स्वचौर्यदोषोचितमेव दण्डम् Raje prasedham navaneta chauram gopanganam chadukola chauram. Aneka janmarjita papa chauram chaura graganyam gorosham namami. Karagrihe vasasadardaye madiye Madbhakti Pasha Drida Bandana Nishalasan Tvam Krishna He Pralaya Koti Shatantarepi Sarvasva Chaurar Dayanahi Mochayami.